इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। जम्मू कश्मीरे अद्य जम्मू क्षेत्रस्य रामबन मण्डलस्य सेरी बागना क्षेत्रे मेघस्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः। आरबीआई प्रमुखेन संजय मल्होत्रा इत्यनेन उक्तं यत् भारतस्य विदेशी विनिमय आपणानि विगतेषु चतुर्षु वर्षेषु द्विगुणितानि जातानि। अमेरिकीय उपराष्ट्रपतिः जेम्स डेविड वेन्श श्वः भारतस्य चतुर्दिवसीय आधिकारिक यात्रार्थं नवदिल्लीम् आगमिष्यति। देशस्य विभिन्नेभ्यो भागेभ्यः विदेशेभ्यः च ईस्टर उत्सवः आमान्यते। दिवसस्यास्य निमित्तं गिरिजाघर इत्येतेषु स्थलेषु विशेष प्रार्थना सभाः आयोजिताः सन्ति। अपि च अमेरिका देशस्य शिकागो नगरे आयोक्ष्यमाणे स्क्वाश क्रीडायां भारतस्य वीर चोडरानी अनाहत सिंहौ च 25+ वर्षस्य विश्व चैम्पियनशिप इत्यस्याः स्पर्धायाः अर्हतां समर्जितवन्तौ। अथ वार्ताः विस्तरेण। जम्मू कश्मीरे अद्य जम्मू क्षेत्रस्य रामबन मण्डलस्य सेरी बागना क्षेत्रे मेघस्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः। रामबन क्षेत्रे गतरात्रौ तीव्र हिमपातः बहुविध भूस्खलनं तीव्र वायुः प्रवाह च अभवन्। अद्य प्रातः काले मण्डलस्य धर्मकुण्ड ग्रामे प्रचण्ड वृष्ट्या जलप्लावेन प्राय शताधिका जनाः उद्धारिताः। क्षेत्रे प्रतिकूल ऋतोः कारणेन ग्रामे 40 आवास गृहाणि क्षतिग्रस्तानि अभवन्। आकाशवाण्याः सह चर्चायाम् उपायुक्तेन बसीर उल हक चौधरी इत्यनेन उक्तं यत् नदीनां जलस्रोतानां अतिप्रवाहस्य कारणेन जलाप्लवेन कारणेन अनेकानि वाहनानि प्रभावितानि।
काफी जगहों पे क्लाउड बस्टिंग हुई हमारी, जिसमें काफी ज्यादा मलबा डबरी जो है वो हमारा टाउन जो रामबन मेन टाउन है उसमें आ गया। हमारी जो हाईवे है उसमें काफी जगहों पे जो है वो बहुत बड़ी बड़ी लैंडस्लाइड हो गई और कुछ एरियाज में जो है पानी का लेवल बढ़ने की वजह से जो है वो घरों को भी काफी डैमेज हुआ। कुछ घर जो है वो कम्प्लीटली वॉश आउट हो गए। उसी के साथ साथ अभी तक जो है वो जानी नुकसान जो है वो 3 हुए, जिसमें 2 बच्चे और 1 एजड आदमी थे, जिनको हमने डेड बॉडीज को रिट्रीव कर लिया और आखिरी रस्मात के लिए जो उनके घर वाले थे उनको दे दिया गया है। उसके बाद जो है बाकी कहीं पे भी जो है वो जान नुकसान नहीं हुआ है।
रामबन मंडल प्रशासनेन जिला नियंत्रण कक्षस्य आपत दूरभाष संख्या भी प्रसारितास्ति। संख्या अस्ति 0199825500। अपरतः 0199826677790। तत्रैव केन्द्रीय मंत्री डॉ जितेन्द्र सिंह, जम्मू कश्मीरस्य मुख्यमंत्री उमर अब्दुल्ला च अस्यां घटनायां प्राणहानि विषये दुःखं प्रकटितवन्तौ। केन्द्रीय मंत्री सामाजिकान्तर्जालीय सन्देशे अवदत् सः मण्डलस्य उपायुक्तेन सः नित्यं सम्पर्के अस्ति। सः अवदत् यत् आर्थिकादिकं सर्वविधं सहायताः प्रदत्ताः भविष्यन्ति। सामाजिक माध्यमेषु गत्वा जम्मू कश्मीरस्य मुख्यमंत्री अवदत् यत् सः दिने जीर्णोद्धारस्य उद्धारस्य च कार्याणां समीक्षां करिष्यति। आरबीआई प्रमुखेन संजय मल्होत्रा इत्यनेन उक्तं यत् भारतस्य विदेशी विनिमय आपणानि विगतेषु चतुर्षु वर्षेषु द्विगुणितानि जातानि। बालीदेशे FIMMDA PDAI इत्यस्य वार्षिकोत्सवावसरे सः प्रोक्तवान् यत् भारतस्य वित्तीय आपणानि आर्थिक विकासं संवर्धयितुं गतिशील रूपेण विकसितानि जातानि, यस्मिन् 20+ वर्षे वैदेशिक मुद्रा आपणं 32 बिलियन डॉलर मितात् द्विगुणी भूय 24+ वर्षं यावत् 60 बिलियन डॉलर मितं संजातम् अस्ति। मल्होत्रावर्येण अप्युक्तं यत् भारतीय विपण्येषु पारदर्शितायाः स्तरः विश्वस्य सर्वोत्तमः वर्तते। प्रधानमन्त्री नरेन्द्र मोदी सऊदी अरब देशस्य द्विदिवसीय यात्रायां मंगलवासरे जेद्दाह नगरं सम्प्राप्स्यति, यत् चतुर्षु दशकेषु भारतीय नेतृणां सऊदी अरबस्य वाणिज्यिक केन्द्रस्य प्रथमा यात्रा अस्ति। एषा उच्चस्तरीय यात्रा भारत सऊदी सम्बन्धानां सामान्यारम्भात् आर्थिक रक्षा सांस्कृतिक आयामेषु विस्तृत रणनीतिक सहभागित्वं यावत् उल्लेखनीय परिवर्तनं प्रकाशयति। प्रधानमन्त्रिणा आगामी यात्राया महत्वस्य विषये प्रवदन् सऊदी अरब देशे भारतीय राजदूतः सुहेल एजाज खानः उक्तवान् यत् एषा महत्वपूर्णा यात्रा अस्ति, यस्य उद्देश्यं द्वयोः देशयोः सामरिक सहभागितां संवर्धनम् इति वर्तते। अमेरिकी उपराष्ट्रपति जेम्स डेविड वेन्स श्वः भारतस्य चतुर्दिवसीय आधिकारिक यात्रार्थं नवदिल्लीम् आगमिष्यति। तेन सममेव अमेरिकादेशस्य बहवः वरिष्ठाधिकारिणः चापि सहभूताः भविष्यन्ति। भारतं प्रति उपराष्ट्रपतेः वेन्स्य एषा प्रथमा यात्रा वर्तते। श्वः स प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं करिष्यति। उपराष्ट्रपतिः वेन्स तस्य प्रतिनिधिमण्डलस्य सदस्याः च नवदिल्ल्याम् अन्येषु कार्यक्रमेषु अपि भागग्रहणं करिष्यन्ति। अमेरिकादेशं प्रति प्रत्यागमनात् पूर्वं सः जयपुर आगरा नगर्योः भ्रमणम् अपि करिष्यति। विदेशमन्त्रालयेन उक्तं यत् एषा यात्रा उभयोः देशयोः द्विपक्षीय सम्बन्धानां प्रगतेः समीक्षां कर्तुम् अवसरं प्रदास्यति। ईशामसीहस्य गुडफ्राइडे इत्यस्मिन् दिने कैलवरी नगरे तस्य क्रूस इत्यस्मिन् स्थापनेन मृत्युः अनन्तरं पुनरुत्थानम् अभवत्। देशस्य विभिन्नेभ्यः भागेभ्यः विदेशेभ्यः च ईस्टर उत्सवस्य सूचनाः प्राप्ताः सन्ति। दिवसस्यास्य निमित्तं गिरिजाघर इत्येतेषु स्थलेषु विशेष प्रार्थनासभाः आयोजिताः सन्ति। केरलराज्ये सहस्राणि यावत् जनाः अस्य उत्सवस्य आयोजने एकत्रिताः सन्ति। विशपाः वरिष्ठाः पादरीः इत्येताः च विभिन्नेषु पूजास्थलेषु ईस्टर मास समारोहस्य नेतृत्वं कृतवन्तः। जनान् शान्तिपूर्वकं स्थातुं समाजे वञ्चितानां कृते विचारं कर्तुं च आग्रहं कृतवन्तः। उत्सवः मानवजातेः हिताय ईशामसीहेन व्यतीतानां दुःखानां त्यागस्य प्रार्थनायाः चिन्तनस्य च एकस्य ऋतोः समाप्तेः संकेतं प्रददाति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय जनता पार्टी इति दलेन वक्प संशोधन अधिनियमस्य लाभानां विषये जनान् जागरूकान् कर्तुं वक्प सुधार जनजागरण अभियान इत्याख्यम् एकं राष्ट्रव्याप्य अभियानम् अद्य समारब्धम्। अभियानमिदं मई मासस्य पञ्चमदिनांकं यावत् प्रचलिष्यति। अस्य अभियानस्यान्तर्गतं भाजपा दलस्य नेतारः कार्यकर्तारश्च मुस्लिम समुदायस्य जनैः सह मेलनं विधास्यन्ति। सममेव संशोधित अधिनियमानां विषये तान् जागरूकान् अपि करिष्यन्ति। इतः पूर्वं भाजपा दल अध्यक्ष जगत प्रकाश नड्डा विपक्षेषु दलेषु वोट बैंक इत्यस्य राजनीतिं कर्तुं संशोधित विधेः प्रावधानमालक्ष्य मुस्लिम जनेषु भ्रन्तेरुत्पादनस्य आरोपम् आरोपितवान् आसीत्। दिल्ल्याः मुख्यमंत्री रेखा गुप्ता अद्य राष्ट्रिय राजधान्याः बुराड़ी क्षेत्रात् एकादश शतोभिधिकं यावत् जीपीएस युतानां जलवाहक वाहनानां हरितध्वजं प्रदर्शितवती। एतै वाहने तेषु क्षेत्रेषु जलापूर्तिं भविष्यति यत्र जलस्य अतिन्यूनता दृश्यते अथवा यत्र नलिकामाध्यमेन जलापूर्तिम् असम्भवमेव। कार्यक्रमावधौ सुश्री गुप्ता इत्यनया साकं दिल्ली सर्वकारस्य मन्त्रिणः नगरस्य सांसदापि उपस्थिताः आसन्। कार्यक्रमं समम्बोधयन्त्या मुख्यमन्त्रिणा प्रोक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे दिल्ली सर्वकारः राष्ट्रिय राजधान्याः विकासाय पूर्णपारदर्शितां संस्थापयिष्यति।
नरेंद्र मोदी जी के नेतृत्व वाली दिल्ली की नई सरकार पूरी तरीके से पारदर्शी और सुगम जल आपूर्ति के लिए संकल्पित है। जो दिल्ली में 1111 टैंकर्स भेजे जा रहे हैं, अब से हर एक टैंकर पे जीपीएस सिस्टम का लगना ताकि उसकी पूरी की पूरी ट्रैक रिकॉर्ड ध्यान में आए। ये पूरे सिस्टम को ट्रांसपेरेंट बनाने के लिए, भ्रष्टाचार मुक्त बनाने के लिए मुझे लगता है कि दिल्ली की जनता के लिए एक बहुत बड़ा कदम है।
स्क्वाश क्रीडायां भारतस्य वीरचोटरानी अनाहत सिंहौ च 25th-2000 वर्षस्य विश्व चैम्पियनशिप इत्यस्याः स्पर्धायाः अर्हतां समर्जितवन्तौ, यत् आगामी मासे अमेरिकादेशस्य शिकागो नगरे भविष्यति। अधुना विश्व चैम्पियनशिप इत्यस्याः क्रीडायाः पुरुषैकल स्पर्धायां कुलचत्वारः भारतीय क्रीडकाः वीरचोटरानी, रमित टण्डनः, अभय सिंहः, बेलावन सेन्थिला च भागं स्वीकरिष्यन्ति। तत्रैव महिलावर्गे अनाहतः प्रथमे विश्व चैम्पियनशिप क्रीडायां भागं भजिष्यति। आईपीएल क्रिकेट स्पर्धा मालिकायां पंजाब किंग्स दलेन षड् क्रीडकानां हानि पुरस्सरं। पंजाब किंग्स दलेन 48.1 धावनांकानां लक्ष्यं रॉयल चैलेंजर्स बेंगलुरु दलस्य सम्मुखे स्थापितम्। तत्रैव सायं सार्धसप्तवादने मुम्बय्याः वानखेड़े क्रीडांगणे मुम्बई इंडियंस दलं चेन्नई सुपर किंग्स दलेन सह स्पर्धिष्यते। इति वार्ताः।